सर्वेषां समासचिन्तनवर्गे हार्दं स्वागतम्। समस्तपदनिर्माणप्रक्रिया अनुवर्तमाना अस्ति, समासप्रक्रियाचिन्तनम् अनुवर्तमानम्। तत्र राजपुरुषः इति समस्तपदं स्वीकृत्य अस्माकं चिन्तनं प्रवर्तमानमस्ति। चिन्तनं तु गते सप्ताहे एव आरब्धं, सः एव विषयः अद्यापि अनुवर्तते। अत्र समस्तपदमस्ति राजपुरुषः, लौकिकविग्रहवाक्यं राज्ञः पुरुषः इत्युक्ते अर्थावबोधनार्थं लौकिकविग्रहवाक्यं वदामः। राज्ञः पुरुषः इति लौकिकविग्रहवाक्यं भवति। लौकिकविग्रहवाक्यम् अनुसृत्य अस्माकं शास्त्रीयविग्रहवाक्यम् अथवा अलौकिकविग्रहवाक्यं वदामः। अत्र अलौकिकविग्रहवाक्यम् अथवा शास्त्रीयविग्रहवाक्यं पुरुषयोगः सु राजन्योगः नस् इति भवति। अलौकिकविग्रहवाक्यकथनम् एव प्रथमं सोपानम् इत्युक्ते समस्तपदरूपसाधनार्थम् अलौकिकविग्रहवाक्यकथनम् एव प्रथमं सोपानम् इति वयं जानीमः। अधुना पुरुषयोगः सु राजन्योगः नस् इति रूपमस्ति अत्र अस्माकं पार्श्वे। अधुना प्राक्कडारात् समासः इति सूत्रेण, अधिकारसूत्रेण तस्य सामान्यसमाससंज्ञा विधीयते। तदनन्तरं तत्र पदप्राधान्यनिर्णयः क्रियते। तत्र राजपुरुषः गच्छति, तत्र गच्छति इति क्रियापदं योजयित्वा तत्र वाक्यं विरचय्य, तत्र राजपुरुषः गच्छति इति वाक्यं विरचय्य अधुना पदप्राधान्यनिर्णयं कुर्मः। अत्र पुरुषः एव गच्छति, न तु राजा इति वयं जानीमः। तदर्थमेव तत्र उत्तरपदप्राधान्यं दृश्यते। तदर्थम् उत्तरपदार्थप्रधानः तत्पुरुषः इति नियमेन तत्र विशिष्टसमाससंज्ञा तत्पुरुषः इति समाससंज्ञा दीयते। तदनन्तरं षष्ठी इति षष्ठी तत्पुरुषसमासविधायकसूत्रमस्ति। इत्युक्ते अत्र राज्ञः इति षष्ट्यन्तं सुबन्तपदेन सह पुरुषः इति समर्थं सुबन्तपदं समस्यते इति कृत्वा तत्र षष्ठी इति विधायकसूत्रेण षष्ठी तत्पुरुषसमासः भवति। आहत्य पुरुषयोगः सु राजन्योगः नस् अत्र सम्पूर्णशब्दस्वरूपस्य अथवा सम्पूर्णशब्दसमुदायस्य प्रातिपदिकसंज्ञा दीयते। इत्युक्ते तत्र साधारणतया अर्धवत् अधातुरप्रत्ययः इति सूत्रेण प्रातिपदिकम् इति किम् इति उच्यते, किन्तु अत्र तु अन्यत् संज्ञासूत्रेण कृत्तद्धितसमासाश्च इति संज्ञासूत्रेण अत्र प्रातिपदिकसंज्ञा दीयते। यद्यपि अत्र कृदन्तं नास्ति, तद्धितान्तं नास्ति, अस्माकं विषयः तु समासः अस्ति। इत्युक्ते समस्तपदस्य प्रातिपदिकसंज्ञा कृत्तद्धितसमासाश्च इति सूत्रेण दीयते। आहत्य सम्पूर्णशब्दस्वरूपस्य प्रातिपदिकसंज्ञा तत्र कृत्तद्धितसमासाश्च इति सूत्रेण दीयते। इत्युक्ते यावत्पर्यन्तं प्रातिपदिकसंज्ञा नास्ति तावत्पर्यन्तं सुपः लोपः न भवति इति वयं जानीमः। अधुना सम्पूर्णशब्दस्वरूपस्य प्रातिपदिकसंज्ञा अस्ति इति कृत्वा सुपोधातुप्रातिपदिकयोः इति सूत्रेण तत्र द्वयोः सुपः लोपः भवति। इत्युक्ते सुप्रत्ययोः लोपः भवति, प्रत्ययोः लोपानन्तरं पुरुषयोगः राजन् इति रूपं सिद्धं भवति अस्माकं कृते। तदनन्तरं किं पदं पूर्वं भवति, किं पदं परं भवति इति चिन्तनं करणीयं। तत्र प्रथमानिर्दिष्टं समास उपसर्जनम् उपसर्जनं पूर्वम् इत्याभ्यां सूत्राभ्यां तत्र राजन् इति पदस्य उपसर्जनसंज्ञा भूत्वा राजन् इति पदस्य पूर्वनिपातः भवति इति वयं जानीमः। अत्र राजन् शब्दस्य अनन्तरं नस् इति प्रत्ययः अस्ति, पुरुषपदस्य अनन्तरं सुप्रत्ययः अस्ति, किन्तु अधुना द्वयोः प्रत्ययोः दर्शनं नास्ति। इत्युक्ते वयं तान् प्रत्ययान् न पश्यामः, तत्र प्रत्ययाः न सन्ति चेदपि, प्रत्ययौ न सन्ति चेदपि तत्र प्रत्ययाश्रितं कार्यं भवति एव इत्युक्ते तत्र एकं सूत्रमस्ति प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण यद्यपि सुप्रत्ययस्य सुप्रत्यययोः लोपः भवति तथापि तत्र प्रत्ययाश्रितं कार्यम् इत्युक्ते प्रत्ययनिमित्तिकं कार्यं भवति एव इति वयं जानीमः. तेन अत्र राजन् इति पदस्य पूर्वपदस्य पदसंज्ञा अपि अस्ति. इत्युक्ते साधारणतया सुप्तिङ्गन्तं पदम् इति सूत्रेण तस्य पदसंज्ञा भवति. अधुना अपि सुप्रत्ययोः लोपानन्तरम् अपि तस्य पदसंज्ञा अस्ति, अपि च प्रातिपदिकसंज्ञा अपि अस्ति इति अस्माभिः दृष्टमेव. तदनन्तरं कार्यं किम् इति द्रष्टव्यम्. अधुना पूर्वपदम् अत्र शब्दस्वरूपं कथमस्ति, राजन् योगः पुरुष इति रूपम् अत्र दृश्यते. अधुना राजन् शब्दस्य पदसंज्ञा अस्ति, प्रातिपदिकसंज्ञा अस्ति इति कृत्वा तत्र नलोपः प्रातिपदिकान्तस्य इति सूत्रेण तत्र नकारस्य राजन् इति पदस्य अन्ते स्थितस्य नकारस्य लोपः भवति. तेन अत्र राजयोगः पुरुष इति पदं सिद्ध्यति. तत्र शास्त्रं पर्जन्यवत् इति एकः नियमः अस्ति. इत्युक्ते यत् अत्र नलोपः प्रातिपदिकान्तस्य इति सूत्रस्य प्रसक्तिः न केवलं समासप्रसङ्गे सुबन्तप्रकरणे अपि अस्ति. तत्र शास्त्रं पर्जन्यवत् इत्युक्ते तत्र यत्र यत्र निमित्तानि पूरितानि भवन्ति तत्र तत्र सूत्रं शास्त्रम् आगत्य तिष्ठति, आगत्य कार्यं करोति इति विषयः. इत्युक्ते आहत्य नलोपः प्रातिपदिकान्तस्य इति सूत्रस्य प्रसक्तिः सुबन्तनिर्माणावसरे अपि अस्ति. अधुना अस्माकं पुरतः राजयोगः पुरुष इति स्वरूपं शब्दस्वरूपम् अस्ति, तस्य प्रातिपदिकसंज्ञा अपि अस्ति इति वयं दृष्टवन्तः. अधुना किं भवति? अत्र अधुना लिङ्गनिर्णयः करणीयः, अपि च वचननिर्णयः करणीयः. किन्तु तस्मात् पूर्वं सन्धिः करणीयः वा इति अपि द्रष्टव्यं. किन्तु राजयोगः पुरुष इत्यस्मिन् सन्दर्भे तत्र सन्धेः अवसरः नास्ति इति कृत्वा लिङ्गनिर्णयं कुर्मः. तदर्थम् एकं नूतनं सूत्रमस्ति अस्माकं कृते, परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रमस्ति. तस्मात् आरभ्य अद्य पठेम. अहं किञ्चित् सारांशरूपेण उक्तवती गते सप्ताहे, यत् अस्माभिः पाठितं तत्सर्वम् अहं सारांशरूपेण उक्तवती. अधुना राजपुरुषः इति पदमेव स्वीकृत्य तत्र परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सोपानात् आरभ्य अद्य पठेम. अपि च अहम् एकं वक्तुमिच्छामि, साधारणतया उत्तरपदार्थप्रधानः तत्पुरुषः इति वदामः, सर्वत्र प्रायेण इति वक्तव्यं भवति. इत्युक्ते सर्वदा सर्वत्र तथा भवति इति वक्तुं न शक्यते. इत्युक्ते तत्र तत्पुरुषसमासप्रसङ्गे अपि पूर्वपदप्राधान्यं दृश्यते. कुत्रचित् केषुचित् स्थलेषु पूर्वपदप्राधान्यं दृश्यते. इत्युक्ते कुत्रचित् अपवादाः सन्ति इति वक्तुं शक्नुमः. अपि च अन्यः विषयः अस्ति, अत्र राज्ञः पुरुषः इति विग्रहवाक्यं लिखामश्चेत्, पुरुषः राज्ञः इति वदामश्चेत्, अथवा सीतायाः पतिः अथवा पतिः सीतायाः इत्युक्ते विग्रहवाक्यं भिन्नरीत्या वदामश्चेदपि समस्तपदं तु समानमेव इति वक्तुं शक्यते. अत्र आहत्य इत्युक्ते विग्रहवाक्यपरिवर्तनं कुर्मः चेदपि, इत्युक्ते पतिः सीतायाः इति वदामश्चेदपि तत्र समस्तपदं तु एकमेव भवति, भिन्नरीत्या वदामश्चेदपि इति एकः विषयः अस्ति. अत्र अन्यः विषयः प्राक् कडारात् समासः इति एकं सूत्रमस्ति. तत्र प्राक् इति एकं पदमस्ति. प्राक् इति कीदृशं पदं, कोऽपि वदति वा? तत्र राजः, तत्र राजन् इति नकारान्तपदं वयं जानीमः, पुरुषः अकारान्तपदं. प्राक् इति पदं कीदृशं पदम्
अपि
च चकारान्तपदं चकारान्तपदं तत्र तावदेव. अधुना अत्र परवल्लिङ्गं द्वन्द्वतत्परिषयोः इत्यस्मात् आरभ्य पठामः. विलम्बेन कृपया नाम वदन्तु के के आगतवन्तः.
क्षम्यतां,
श्रीराम महोदय नमस्ते. गीताञ्जलि सुमन् भगिनी नमस्ते.
नमस्कारम्, अहं शुभदा. अहं ऐ एम् न्यू हियर्, जस्ट् जोयिन्ड्, सो ऐ जस्ट् वाण्ट् टु केच् अप् द प्रीवियस् लेसन्स्, सो जस्ट् जोयिन्ड् टुडे.
नमस्कार, अहं सरस्वती.
सरस्वती भगिनी नमस्ते, स्वागतम्.
धन्यवादः.
ललिता भगिनी स्वागतं. सूर्यकुमारी भगिनी, आहत्य एकं वक्तुमिच्छामि. भवतां पार्श्वे ध्वनिः अस्ति चेत् कृपया म्यूट् कुर्वन्तु. यदि भवन्तः वक्तुमिच्छन्ति चेत् तदा एव अन्म्यूट् कृत्वा वदन्तु इति विषयः. अद्य दर्शना भगिनी भवती पठति वा अत्र?
श्रूयते खलु? राजपुरुष. इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति. परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इत्यनेन समासे उत्तरपदस्य यत् लिङ्गम् अस्ति तदेव लिङ्गं भवति द्वन्द्वतत्पुरुषयोः. उत्तरपदम् अस्ति पुरुष इति, तस्य लिङ्गम् अस्ति पुल्लिङ्गम्. अतः राजपुरुष इति समस्तपदस्य लिङ्गं भवति पुल्लिङ्गम्. सामान्यतया समासः प्रथमपुरुष एकवचने एव उच्यते. अतः राजपुरुष इत्यस्य वचनं भवति एकवचने. तदनन्तरम् अस्माकं विवक्षानुगुणं वाक्ये समस्तपदस्य विभक्तेः परिवर्तनं कृत्वा प्रयोगः करणीयः. तर्हि तत्र इदानीं वयं समस्तपदस्य निर्णयं तु वयं कृतवन्तः राजपुरुष इति. पूर्वनिपात राजपुरुष राजशब्दस्य पूर्वनिपातं कृत्वा सर्वेपि सूत्राणि सर्वाणि सूत्राणि गृहीत्वा वयं निर्णयं कृतवन्तः. इदानीं तस्य लिङ्गस्य वचनस्य निर्णयः करणीयं. तस्य कृते परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण वयं जानीमः यत् उत्तरपदस्य लिङ्गम् एव समस्तपदस्य लिङ्गं भवति इति. अत्र तु पुरुष उत्तम उत्तरपदं. पुरुषशब्दस्य लिङ्गः अस्ति पुल्लिङ्गम्. अतः समस्तपदस्य लिङ्गमपि पुरुष एव भवनीयम् इति अहं वयं ज्ञातुं शक्नुमः सामान्यतया. तर्हि समास वयं यदा निर्णयं कुर्मः तदा प्रथमपुरुषे एकवचने एव अस्ति. अतः राजपुरुषः इत्यस्य वचनं भवति एकवचनं. तदनन्तरं वयं यत्कपि कुत्रापि उपयोगं वयं यदा कुर्मः तदा विभक्तेः योजनेन उपयोगं करणीयः उपयोगः करणीयः. तर्हि द्विविभक्ति प्रथमपुरुष अथवा मध्यमपुरुष अथवा उत्तमपुरुष वयं तर्हि यथा परिस्थिति तथा उपयोगं करणीयः उपयोगः करणीयः इति.
उत्तमं भगिनी, उत्तमरीत्या प्रतिपादितवती. अत्र परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रमस्ति, तस्मिन् विषये किञ्चित् सूत्रप्रसङ्गे चिन्तनं कुर्मः. परवल्लिङ्गम् अत्र एकः सन्धिः अस्ति, कोऽपि वदति वा कीदृशसन्धिः अस्ति अत्र? पर्वत् पर्वत् योगः लिङ्गं, तत्र पर्वत् इति तोर्लि, उत्तमं तोर्लि सन्धिसूत्रं कार्यं करोति. तत्र पर्वत् इति अव्ययपदमस्ति, लिङ्गम् इति उत्तरपदमस्ति, अत्र परसवर्णादेशः भवति. इतोपि स्पष्टतया वक्तुमिच्छामश्चेत् तोर्लि इति सूत्रं कार्यं करोति, तेन तत्र लकारः आयाति परवल्लिङ्गम् इति. द्वन्द्वतत्पुरुषयोः इति एकं पदमस्ति, तत्रापि द्वन्द्वसमासः अस्ति. अत्र किञ्चित् ज्ञातव्यं, द्वन्द्वसमासप्रसङ्गे प्रभेदद्वयमस्ति, तत्र समाहारद्वन्द्वः, इतरेतरयोगद्वन्द्वः. समाहारद्वन्द्वप्रसङ्गे समस्तपदं सर्वदा नपुंसकलिङ्गे भवति, एकवचने एव भवति, तत्र सः अपवादः. किन्तु अत्र परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रस्य प्रसक्तिः इतरेतरयोगद्वन्द्वसमासे एव भवति. इत्युक्ते अत्र यथा द्वन्द्वतत्पुरुषयोः इति पदे अपि द्वन्द्वसमासः अस्ति, द्वन्द्वः च तत्पुरुषः च, द्वन्द्वतत्पुरुषौ इति पदं सिध्यति. इत्युक्ते द्विवचने अत्र पदार्थद्वयमस्ति इति कृत्वा अत्र द्वन्द्वतत्पुरुषौ तयोः इति वक्तव्यं विग्रहवाक्यं. तदर्थमेव तत्र द्वन्द्वतत्पुरुष
सम्यक् श्रूयते भगिनि.
ओ क्षम्यतां भगिनि, अहं किञ्चित् क्षम्यताम्.
अत्र द्वन्द्व तत्र द्वन्द्वतत्पुरुषयोः इति पदमपि द्वन्द्वसमासे.
क्षम्यतां भगिनि, अपवादः कः इति उक्तवती?
अत्र परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रस्य प्रसक्तिः समाहारद्वन्द्वसमासे न भवति. समाहारद्वन्द्वसमासे सर्वदा तत्र समस्तपदं नपुंसकलिङ्गपदमेव भवति, अपि च एकवचने एव भवति. उदाहरणार्थम् एकं पदं वदामि, पाणिपादं. पाणिपादम् इति एकं समस्तपदमस्ति, पाणिपादम् इति समस्तपदं, तस्मिन् पदे द्वन्द्वसमासः अस्ति अथवा समाहारद्वन्द्वसमासः अस्ति इति कृत्वा तत्र विग्रहवाक्यं कथं वक्तव्यं? पाणी च पादौ च एतेषां समाहारः पाणिपादम्. समस्तपदं तु पाणिपादं, नपुंसकलिङ्गम् एकवचनमेव भवति, किन्तु अत्र इतरेतरयोगद्वन्द्वसमासे एव परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इत्यस्य प्रसक्तिः अस्ति. सूत्रे एव द्वन्द्वतत्पुरुषयोः इति पदं द्वन्द्वसमासयुक्तं पदमस्ति इति एकः विषयः. अत्र
वयं कदाचित् सकुटुम्बं सपरिवारं तथापि समासः भवति, तदपि अव्ययपदं नपुंसकलिङ्ग एव भवति खलु?
अत्र भगिनि अत्र केवलम् उदाहरणार्थम् उक्तवती, किन्तु समासप्रसङ्गे प्रत्येकं पदं स्वीकृत्य विशेषतया तत्र गभीरतया चिन्तनीयं भवति. तत्र सकुटुम्बम् इति पदम् अस्ति एव, इत्युक्ते अत्र तादृशं नपुंसकलिङ्गपदम् अव्ययीभावसमासे अपि दृश्यते, द्वन्द्वसमासप्रसङ्गे अपि दृश्यते. इत्युक्ते केषुचित् स्थलेषु तथा भवति, इत्युक्ते वयं यदा विस्तरेण पठामः तदा इतोपि गभीरतया चर्चयिष्यामः तस्मिन् प्रसङ्गे. अधुना यथा दर्शनाभगिन्या उक्तमस्ति, अत्र पुरुषः इति पदम् उत्तरपदमस्ति, अपि च पुंलिङ्गपदमस्ति इति कृत्वा अत्र राजपुरुष इति पदं पुंलिङ्गपदमेव भवति. अपि च अत्र साधारणतया प्रथमपुरुष एकवचने एव समस्तपदनिर्माणं कुर्मः. इत्युक्ते क्षम्यतां, प्रथमाविभक्ति प्रथमाविभक्ति
इट् आल्सो रिटन् देर् लैक् प्रथमपुरुष भगिनि.
तत्तु मुद्रणदोषः भगिनि, क्षम्यतां. प्रथमाविभक्ति एकवचने एव समस्तपदस्य निर्माणं कुर्मः. अत्र किन्तु
परवत् किं भगिनि?
पर्वत् इति अव्ययपदं.
पर्वत्
इत्युक्ते अत्र द्वन्द्वतत्पुरुषयोः इति पदं षष्टिद्विवचनरूपम्, इत्युक्ते द्वन्द्वसमासप्रसङ्गे तत्पुरुषसमासप्रसङ्गे लिङ्गं परवत्, परवत् इत्युक्ते अत्र उत्तरपदस्य लिङ्गमेव
समस्तपदस्य. अर्थः कः भवति
पर्वत् इत्युक्ते? तत्र साधारणतया तत्र वति इति एकः प्रत्ययः अस्ति, तद्वत् मत्वत् इति वति प्रत्ययः अस्ति. पर्वत् इत्युक्ते परशब्दवत् इति अर्थः, परशब्दवत्. आहत्य प्रथमपुरुषे एकवचने एव तस्य रूपं निर्मामः, किन्तु द्वन्द्वसमासप्रसङ्गे तु द्विवचने अपि भवति. अत्र एकं पदमस्ति विवक्षा इति पदमस्ति, कीदृशं पदं कोऽपि वदतु? विवक्षा साधारणं पदमेव,
वयं
उत्तमं सन्नन्तं रूपं पुनः पुनः तस्य प्रयोगं कुर्मः. अत्रापि लिखितम् अस्ति विवक्षानुगुणम्, अत्र विवक्षा इति तत्र सन्
प्रत्ययः,
वक्तुमिच्छा, उत्तमं, ज्ञातुमिच्छा, जिज्ञासा, पातुमिच्छा, पिपासा, तथा एव वक्तुमिच्छा, विवक्षा. अत्र विवक्षा इति आकारान्तस्त्रीलिङ्गपदमस्ति, विवक्षुः इति पदमपि अस्ति, तत्र ऊकारान्तपदं भवति. अत्र तु विवक्षा इति पदमस्ति. इतोपि इत्युक्ते प्रथमतया प्रथमाविभक्तिरूपं साधयित्वा तदनन्तरं सप्तसु विभक्तिषु तत्र अस्माकं विवक्षानुगुणं तत्रत्यां विभक्त्याम् आधारीकृत्य अनुसृत्य समस्तपदस्य अन्ते सुप्रत्ययान् योजयित्वा वाक्ये तस्य प्रयोगं कुर्मः इति विषयः. उत्तमम्. अनन्तरम् अत्र अरविन्द् महोदय वदतु महोदय.
परलिङ्गं द्वन्द्वतत्त्वविषयोः इति सूत्रस्य सङ्ख्या तत्र दोषेण दत्तमस्ति, किञ्चित् इन्द्रदोषः अस्ति. अत्र षड्विंशति अस्ति सूत्रसङ्ख्या.
ओ अस्तु, सूचयिष्यामः, विद्याभगिनीं सूचयामः. अस्तु, अत्र अग्रिमे परिच्छेदे अरविन्द् महोदय भवान् पठतु.
राजपुरुषसमासस्य प्रातिपदिकसंज्ञा अस्ति इति कृत्वा ज्ञाप् प्रातिपदिकात् सोजस्माभ्यां ब्यस् ज्ञेभ्यां ब्यस् नसिभ्यां ब्यस् नसोभ्यां ज्ञस् नसोसुप् इति द्वाभ्यां सूत्राभ्यां प्रातिपदिकात् सुप् उत्पत्तिः भवति. अत्र परवलिङ्गं सूत्रस्य निर्दिष्टे समस्तपदस्य प्रातिपदिकसंज्ञा प्रातिपदिकसंज्ञा परन्तं सुबन्धपदं निर्मितं तदर्थं एते द्वे सूत्रस्य प्रभावः अस्ति. ज्ञाप्रातिपदिकात् एवं स्वौजस् इति द्वयसूत्रात् प्रथमविभक्ति एकवचनस्य निर्दिष्टं क्रियते.
इत्युक्ते वदतु, वदतु महोदय, क्षम्यताम्. अत्र एतावत्पर्यन्तम् अस्य राजपुरुष इति शब्दस्वरूपस्य प्रातिपदिकसंज्ञा कृत्तर्थितसमासाश्च इत्यनेन दीयते. तदनन्तरम् अत्र सूत्रद्वयं लिखितमस्ति, ज्ञाप्रातिपदिकात् इति एकं सूत्रमस्ति. ज्ञाप्रातिपदिकात् इति पदम् इति सूत्रं कीदृशं सूत्रम् इति पश्यामश्चेत् ज्ञाप्रातिपदिकात् इति अधिकारसूत्रमस्ति. तत्र पदविच्छेदं कुर्मः चेत् तत्र कीदृशं भवति इत्युक्ते अत्र नी इत्युक्ते कवर्गे अन्तिमव्यञ्जनं नीप् आप् अपि च प्रातिपदिकात् नीप् आप् नी आप् प्रातिपदिकात् इति पदत्रयं दृश्यते तत्र. नि इति वदामश्चेत् तत्र त्रयः स्त्रीप्रत्ययाः सन्ति, नीप् नीश् नीन् इति त्रयः स्त्रीप्रत्ययाः सन्ति. आप् इति वदामश्चेत् टाप् डाप् चाप् एते त्रयः एते अपि स्त्रीप्रत्ययाः एव. अत्र तृतीयं पदमस्ति प्रातिपदिकात्, इत्युक्ते प्रातिपदिकात् एव सुप्रत्ययानां योजनं भवति, सुपः विधानं भवति, प्रातिपदिकात् एव सुपः विधानं भवति इति इदं सूत्रं वदति. अधुना अस्माकं पुरतः राजपुरुष इति प्रातिपदिकमस्ति, अतः ज्ञाप्रातिपदिकात् इति सूत्रेण सुपः विधानं भवति. अपि च अत्र एकं दीर्घं सूत्रमस्ति, किन्तु उच्चारणं तु किञ्चित् क्लिष्टकरमेव मम कृते अपि. तदर्थम् एतत् सूत्रं किं वदति महोदय, वदतु दीर्घं सूत्रम्.
सूत्रं दीयते एकविंशति प्रत्ययाः सुबन्धनिर्माणकार्यस्य प्रथमविभक्ति आरभ्य सप्तमपर्यन्तं त्रिषु वचनेषु ये ये प्रत्ययाः उपयोगं करणीयः तस्य विवरणं दत्तम् इदम्.
उत्तमम्. इत्युक्ते सर्वे एकविंशतिसुप्रत्ययानां नामानि अत्र अस्मिन् सूत्रे सर्वे प्रत्ययाः दत्ताः, तदेव अस्य प्रामुख्यता. उत्तमं महोदय. अनन्तरम् अत्र ललिता भगिनी भवती पठति वा अग्रिमं परिच्छेदम्.
राजपुरुषयोगसु राजपुरुषसु इति भवति. अधुना उकारस्य इत् संज्ञा भवति उपदेशे यनुनासिक इत् इत्यनेन. तस्य लोपः इत्यनेन उकारस्य लोपः भवति. अधुना तसजुषोः रुः इति सूत्रेण पदान्तसकारस्य स्थाने रुः आदेशः भवति, राजपुरुषरु इति भवति. उकारस्य इत् संज्ञा भवति उपदेशजनुनासिक इत् इत्यनेन. तत्पश्चात् उकारस्य लोपः भवति तस्य लोपः इत्यनेन राजपुरुषर् इति भवति. अधुना करवसानयोर्विसर्जनीयः इति सूत्रेण पदान्तस्य रेफस्य स्थाने विसर्गदिशः भवति अवसानावस्थायाम्. अतः राजपुरुषः इति समस्तपदं सिद्धम्. सामान्यतया समासः प्रथमाविभक्तौ एकवचने एव क्रियते. तदनन्तरं विवक्षानुगुणं विभक्तेः परिवर्तनं कृत्वा वाक्ये प्रयुज्यते. सर्वासु विभक्तिषु रामशब्दवे शब्दवत् रूपाणि भवन्ति.
भवती प्रतिपादयति वा नो चेत् सहायम् अपेक्षितम्?
सहायम् अपेक्षितम्.
सुमन् भगिनी, अत्र बहूनि सोपानानि सन्ति, प्रत्येकं वाक्यं स्वीकृत्य सरलरूपेण किञ्चित् वदतु. अस्ति वा भगिनि, सुमन् भगिनि? नो चेत् श्रीराम् महोदय भवान् वदतु.
क्षम्यतां, म्यूट् किमपि क्लेशः आसीत्. कृपया प्रश्नः पुनः पृच्छतु.
अत्र अन्तिमं राजपुरुषः इति पदस्य विषये अन्तिमपरिच्छेदं ललिता भगिनी पठितवती. अत्र बहूनि सोपानानि सन्ति, प्रत्येकं वाक्यं स्वीकृत्य भवत्याः अवगमनं किम्? अत्र सरलरूपेण भवती वदतु किञ्चित्.
प्रयत्नं करोमि भगिनि. राजयोगपुरुषः योगसु राजपुरुषसु इति भवति. अधुना उकारस्य इत् संज्ञा भवति उपदेशे अजनासिक इत् सूत्र इत्यनेन तस्य लोपः इत्यनेन उकारस्य लोपः भवति. इदानीं राजपुरुष अस्ति तत्तु पूर्वम् एव प्रातिपदिकं संज्ञा इति प्राप्तवत्. इदानीम् अग्रिमे सोपाने सु औजस् तत् सूत्रम् अस्ति खलु दीर्घसूत्रं तेन सूत्रेण सुबन्तं सुप्रत्यय आगच्छति. इदानीं तु प्रथम प्रथमाविभक्ति एकवचनं पुल्लिङ्ग प्रत्यय अस्ति सु. इदानीं राजयोगपुरुषयोग सु भवति. तत्र सुप्रत्ययस्य उकारः इत्संज्ञा प्राप्नोति तस्य लोपः अपि भवति. राजयोगपुरुष इति तिष्ठति. अनन्तरं ससजुषोरुः कार्यं करोति. ससजुषोरुः सूत्रं वदति पदान्ते सकार अस्ति चेत् तत् सकारस्य स्थाने रु आदेश भवति. अतः इदानीं राजपुरुष रु भवति. तत् रुत्वम् आदेश भवति अतः इदानीं पुरुष रु भवति. अनन्तरं तत् रु शब्दस्य उकारः अपि अनुनासिक अस्ति अतः तस्य अपि उपदेशे अनुनासिक इत् तस्य लोपः सूत्रे इत्संज्ञा प्राप्नोति लोपः अपि भवति. इदानीं राजपुरुष तिष्ठति. इदानीम् अन्ते खर अवसानयोर् विसर्जनीयः सः सूत्रेण खरवसानयोर् विसर्जनीयः सूत्रेण रेफस्य स्थाने विसर्गः आदेशः भवति. पुरुषर् स्थाने राजपुरुषः भवति. अन्तिमरूप प्रथमविभक्ति एकवचनरूपं तदेव अस्ति.
उत्तमं सम्यक् रीत्या प्रतिपादितवती भगिनी. उत्तमम्. अत्र
धन्यवादः.
अत्र मुख्यविषयः अस्ति साधारणतया राजपुरुष इति प्रातिपदिकमस्ति. प्रातिपदिकस्य प्रयोगं कर्तुं न शक्नुमः. इत्युक्ते पदमेव अपदं न प्रयुञ्जीत इति नियमेन पदमेव भवितव्यम् अत्र. तदर्थमेव अत्र पुनः अन्ते सुप्रत्ययानां योजनं कुर्मः. इत्युक्ते केवलप्रातिपदिकस्य उपयोगं वाक्ये कर्तुं न शक्यते इति मुख्यविषयः. तदर्थमेव अत्र सुप्रत्ययानां योजनं कुर्मः. अपि च अस्मिन् परिच्छेदे खरवसानयोर्विसर्जनीयः ससजुषोरुः इति सूत्रद्वयं लिखितमस्ति. ये ये जनाः व्याकरणकक्षां गच्छन्ति ते सर्वे जानन्ति एव अनयोः सूत्रयोः प्रसङ्गे. किन्तु अन्येषां कृते एकवारं ससजुषोरुः खरवसानयोर्विसर्जनीयः एतान् सूत्रान् पठामः. तदर्थम् अत्र अधोभागे भगिनी लिखितवती इति भाति. सर्वे अत्र ससजुषोरुः इति सूत्रं पश्यन्तु. अत्र विनय् महोदय भवान् पठति वा ससजुषोरुः? दृश्यते खलु अत्र सूत्रं?
भवती शृणोति वा?
आं श्रूयते महोदय.
सूत्र सम्बन्धे यतः भवत्यः वर्णतः अहं न जानामि तत्र सूत्रः.
अत्र अस्मिन्नेव करपत्रे किञ्चित् अधोभागे पश्यामः, भवान् पश्यति चेत् अत्र दत्तमस्ति ससजुषोरुः इत्युक्ते अत्र राजपुरुषः इत्यस्मिन् सूत्रे तत्र अन्तिमसकारस्य स्थाने कथं ऋत्वं भवति इति चिन्तयामश्चेत् अनेन सूत्रेण ऋत्वं भवति इति लिखितवती भगिनी.
अद्य अपि अहं
चिन्ता मास्तु महोदय, नो चेत् पुनः पृच्छामि अन्य कोऽपि पठति. अत्र सूर्यकुमारी भगिनी भवती पठितुम् इच्छति वा?
पदान्तसकारस्य स्थाने रु आदेशः भवति.
इतोपि पठतु खलु, पठतु.
पदान्तसकारस्य स्थाने रु आदेशः भवति.
सूत्रं पूर्णतया पठतु.
अत्र
सूत्रं दत्तमस्ति, सूत्रं पूर्णतया पठतु.
सूत्रम्
अधोभागे दत्तमस्ति.
पदान्ते सकारस्य च सजषु शब्दस्य सकारस्य च स्थाने रु आदेशः भवति. सा ससजुषो द्विपदं सकारः ससजुषु पदं ससजुष् सकार अन्तिम
भवत्याः पार्श्वे सम्पूर्णं सूत्रस्य विषये लिखितम् अस्ति वा अत्र?
आम् भगिनि, पदान्ते सकारस्य च सजषु शब्दस्य सकारस्य च स्थाने रु आदेशो भवति येन विधिस्तदनन्तस्य इत्यनेन न केवलं यत् पदं सकारः अस्ति अपि तु यस्य पदस्य अन्ते सकारः अस्ति. अलो अन्तस्य इत्यनेन पदान्तस्य वर्णस्य स्थाने रु आदेशः न तु पूर्णपदस्य. स च सजुषुश्च ससजुषौ इतरेतरद्वन्द्वः तयोः ससजुषोः षष्ट्यन्तं रुः प्रथमान्तं द्विपदमिदं सूत्रं पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ससजुषोः पदस्य रुः
प्रतिपादयति वा?
आम् भगिनि, ससजुषोः षष्ट्यन्तपदं रुः प्रथमान्तं पदस्य अधिकारः पदस्य पदान्ते सकारस्य सजषु शब्दस्य तयोः रु आदेशो भवति. येन विधिस्तदनन्तस्य इत्यनेन न केवलं यत् पदं सकारः अपि तु पदस्य अन्ते सकारः अस्ति अस्ति.
अत्र भगिनी अत्र किञ्चित् स्थगयतु. येन विधिस्तदन्तस्य इति एकं परिभाषासूत्रमस्ति. अत्र किं लिखितमस्ति? येन विधिस्तदन्तस्य इति सूत्रेण न केवलं यत् पदं सकारः अस्ति, यस्य पदस्य अन्ते सकारः अस्ति तस्यापि ग्रहणं भवतु इति इदं परिभाषासूत्रं वदति. अस्मिन् प्रसङ्गे राजपुरुषः इति सूत्रस्य प्रसङ्गे अत्र राजपुरुषस् इति पदमस्ति. इत्युक्ते अत्र राजपुरुषस् इत्यस्मिन् पदस्य अन्ते सकारः अस्ति. इत्युक्ते अत्र यस्य पदस्य अन्ते सकारः अस्ति तत् पदमपि ग्रहीतव्यम् इति अत्र येन विधिस्तदन्तस्य इति सूत्रेण उक्तमस्ति. अत्र इदं सूत्रं परिभाषासूत्रमस्ति. अपि च अनियमे नियमकारिणि इत्येकं वाक्यमस्ति. अनियमे नियमकारिणि इत्युक्ते यत्र यत्र सूत्रविषये स्पष्टता नास्ति, सम्यक्तया वयं कार्यं तत्र किं कार्यं भवति इति अवगन्तुं न शक्नुमः, तस्मिन् सन्दर्भे परिभाषासूत्रम् आगत्य स्पष्टतया वदति किं कर्तव्यम् इति वदति. अत्र येन विधिस्तदन्तस्य इति सूत्रं परिभाषासूत्रं यस्य पदस्य अन्ते सकारः अस्ति इति अत्र राजपुरुषस् इति पदस्य प्रसङ्गे तस्य प्रसक्तिः अस्ति. अपि च ससजुषोरुः इत्यस्मिन् सूत्रे ससजुषोः इति अपि द्वन्द्वसमासयुक्तं पदं, सश्च सजुश्च. अत्र तु सकारस्य प्रसङ्गे एव सजुष् शब्दस्य प्रसङ्गः अत्र नास्ति. राजपुरुषः इति समस्तपदस्य प्रसङ्गे सजुष् शब्दस्य प्रसङ्गः नास्ति, अत्र सकारस्य प्रसङ्गः एव. इत्युक्ते पद अत्र राजपुरुषस् इति सम्पूर्णप्रातिपदिकस्य प्रातिपदिकसंज्ञा अस्ति, पदसंज्ञा अपि अस्ति इति कृत्वा पदान्तं पदमस्ति चेदेव इदं सूत्रं कार्यं करोति. इत्युक्ते पदसंज्ञा भवेदेव. तदर्थमेव अत्र
पदान्ते
सकारस्य इति स्पष्टतया लिखितमस्ति. पदान्तसकारस्य रुत्वं भवति. अपि च अस्मिन्नेव प्रसङ्गे अलोन्त्यस्य इति एकं परिभाषासूत्रमस्ति. अत्र श्रीराम महोदय भवान् वदतु, अत्र अलोन्त्यस्य प्रसक्तिः कथमस्ति राजपुरुषः इत्यस्मिन् पदे?
अस्तु भगिनि, अलोन्त्यस्य इति सूत्रं वदति यदा आदेशः भवति तदा सः आदेशः अन्ते एव भवति इति. किमर्थम् इत्युक्ते यदा आदेशः भवति प्रश्नः वदति स्थानिनि कुत्र आदेशः भवेत् इति प्रश्नः उदेति, मध्ये वा प्रथमे वा अथवा अन्ते वा पूर्णतया वा इति प्रश्नः उदेति, आदेशः कुत्र भवति इति. इदानीम् अलो अन्तस्य च सूत्रं किं वदति, आदेशः सर्वदा अन्तिमवर्णस्य एव भवति इति सूत्रं वदति. अन्यसूत्रेण अन्यस्थलेषु अपि भवितुमर्हति.
अत्र राजपुरुषस् राजपुरुषस् इति पदे अत्र रु आदेशः कस्य स्थाने भवति अलोन्त्यस्य इति परिभाषया?
तत्र राजपुरुषस् इति पदम् अस्ति, सकारः प्रत्यये अस्ति, अन्तिमवर्णः अस्ति सकारः. अलोन्त्यस्य इति सूत्रेण रु आदेशः तदा अन्तिमसकारस्य स्थाने एव भवति.
उत्तमम्. इत्युक्ते अत्र इदं परिभाषासूत्र
राजश्रु इति
तत्र सकारस्य स्थाने भवति इति कृत्वा राजपुरुषर् राजपुरुषरु इति भवति. सकारस्य स्थाने रु आदेशः भवति इति कृत्वा राजपुरुषरु इति भवति. किन्तु यथा अत्र सुमन् भगिन्या उक्तं, सः ऋकारः, तत्र ऋकारस्य अन्ते अनुनासिक उकारः अपि अस्ति. इत्युक्ते अत्र येन विधिस्तदन्तस्य अलोन्त्यस्य इति परिभाषासूत्रद्वयं नास्ति चेत् अत्र कीदृशं कार्यं भवति इति स्पष्टतया वयम् अवगन्तुं न शक्नुमः. तदर्थमेव परिभाषासूत्रम् आगत्य अत्र वदति. अत्र आदेशः तु अत्र स्थाने अस्ति, षष्ट्यन्तं पदं, सम्पूर्णपदस्य स्थाने न भवति किन्तु केवलम् अन्तिम षष्टिविभक्त्या निर्दिष्टस्य शब्दस्य अन्तिमवर्णस्य स्थाने एव रु आदेशः भवतु इति अलोन्तस्य सूत्रं वदति. उत्तमम्. अग्रे पठतु महोदय, भवान् पठतु विरामावसानम्.
विराम अवसानं वर्णानाम् अभावः अवसानसप्तकः, विरामः प्रथमान्तम् अवसानं प्रथमान्तं द्विपदं सूत्रं, सूत्रं स्वयं सम्पूर्णं विरामः अवसानम्. अत्र विराम अवसानम् इति सूत्रं सूत्रे पदद्वयम् अस्ति, विरामः अपि च अवसानम् इति. पदद्वयमपि प्रथमान्तम् एव. सूत्रं किं वदति इत्युक्ते वर्णानाम् अभावः. यदा विचारणं कुर्मः, यदा वर्णानाम् अभावः भवति तद् अवसानम् इति संज्ञा प्राप्नोति.
उत्तमं. किन्तु अत्र अस्माकं राजपुरुषः इति पदस्य प्रसङ्गे विरामावसानम् इति संज्ञासूत्रस्य प्रसक्तिः किमर्थम्?
इदानीं राजपुरुषः इति पदं स्वीकुर्मश्चेत् इदानीं अस्माकं प्रक्रियायाम् इदानीं राजपुरुषर् इति स्थिते राजपुरुषर् अनन्तरं किमपि वर्णः नास्ति, उच्चारणं किमपि न कुर्मः, तत्र विरामः अस्ति. विरामः अस्ति इति कारणेन तस्य अवसानसंज्ञा अस्ति. राजपुरुषर् अनन्तरं किमपि नास्ति इत्यतः तत्र तत्र अवसानसंज्ञा प्राप्नोति.
उत्तमम्. इत्युक्ते अत्र पूर्वं भगिन्या प्रतिपादितमेव, तत्र पूर्वं राजपुरुषरु इति भवति, तदनन्तरम् अन्तिम अनुनासिक उकारस्य लोपः, उपदेशेजुनुनासिके इति तस्य लोपः इत्यनेन उकारस्य लोपः भूत्वा राजपुरुषर् इति पदं सिद्ध्यति. तदनन्तरं तत्र रेफस्य स्थाने किं भवति इति अवगन्तव्यं. पठतु महोदय, भवानेव पठतु.
करवासनयोर्विसर्जनीयः पदान्तस्य रेफस्य स्थाने विसर्गो भवति करिपरे अथवा अवसान अवस्थायां. क् च अवसानञ्च तयोः इतरेतरद्वयी द्वन्द्वः करवासाने तयोः करवसानयोः सत्यन्तं विसर्जनीयः प्रथमान्तं द्विपदं सूत्रं. रोरि इत्यस्मात् रोः इत्यस्य अनुवृत्तिः, पदस्य इत्यस्य अधिकारः, अलोहन्तस्य इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति. अनुवृत्तिसहितसूत्रं करवासनयोः पदस्य रुः विसर्जनीयः संहितायाम्. इदं सूत्रं वदति संहितायां, सन्धिप्रसङ्गे यदा सन्धि कुर्मः तस्मिन् प्रसङ्गे करवासनयोः इत्युक्ते तत्र अवसानञ्च इति द्वन्द्वतत्पुरुषः अस्ति तयोः.
महोदय अत्र अहं चिन्तयामि खर् च अवसानं च, क्षम्यतां, खर् च अवसानं च. अत्र खर् इत्युक्ते किं, किञ्चित् वदतु.
खर् इत्युक्ते तत्र अस्माकं पाणिनीयसूत्रपाठे माहेश्वरसूत्रेषु खर् इति प्रत्याहारः भवति. तत्र खफ चटथ चटतव कपै शशर् इति अधोभागे कानिचन केचन वर्णाः आगच्छन्ति. कर् इत्युक्ते तत्र प्रत्याहारः अस्ति. ख फ च ट त चट त चट त कप शाशस एते वर्णाः इत्युक्ते आहत्य वर्गीय प्रथमा
द्वितीयवर्गीयव्यञ्जनानि अत्र एकादशं सूत्रं माहेश्वरसूत्रेषु, एकादशं सूत्रं, द्वादशसूत्रं, त्रयोदशसूत्रम्, अत्र त्रीणि सूत्राणि सन्ति. यथा भवता उक्तं तत्र एतानि कर्कशव्यञ्जनानि इति वदामः. अत्र वर्गीयप्रथमद्वितीयव्यञ्जनानि अपि च सशसा इत्युक्ते ऊष्माणाः इति वदामः. आहत्य खर् प्रत्याहारे एते वर्णाः सन्ति. अग्रे वदतु महोदय.
अपि च अवसानञ्च कर्च अवसानञ्च करवसानयोः तयोः करवसानयोः इति भवति. इत्युक्ते यदा कर अवसानयोः तत्र समस्तपदमस्ति. विसर्जनीयः इति प्रथमान्तं पदम् अस्ति. द्विपदं सूत्रं सूत्रे करवासनयोः इति एकं पदम् अस्ति. विसर्जनीयः इति द्वितीयं पदम् अस्ति. इदानीं करवासनयोः इति पदं षष्ट्यन्तं वा अथवा सप्तम्यन्तम् इति वा प्रश्नवती इति. अस्मिन् प्रसङ्गे करवासनयोः इति पदं सप्तम्यन्तं पदम् अस्ति. इत्युक्ते तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रेण किं भवति आदेशः वा आगमः वा पूर्वस्मिन् वर्णे पदे वर्णे एव भवति इति अर्थः. सप्तमी इति पदं सूचयति. पदस्य अधिकारः अस्ति तद् इदानीम् अलोवन्तस्य इत्येन रेफान्तपदस्य नापि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशः भवति. इदानीं विसर्जनीयः विसर्जनीयः इत्युक्ते विसर्गः. विसर्गः कुत्र भवति इत्युक्ते यदा यदा कस्मिंश्चित् कस्यचित् पदस्य अनन्तरं खर् अक्षरः वर्णः भवति अथवा अवसानं भवति चेत्. अवसानम् इत्युक्ते विराम अवसानम् इति वयम् इदानीमेव पठितवन्तः. विरामवसनम् इत्युक्ते उच्चारणं नास्ति, किमपि उच्चारणं नास्ति. तदा अथवा खर् वर्णः अस्ति चेत् रेफस्य स्थाने तत्र विसर्गादेशः भवति. इदानीं राजपुरुषर् इति समस्तपदम् अस्ति. तत्र रेफ अन्ते अस्ति. रेफ राजपुरुषर् इति अस्ति खलु, तत्र रेफ अन्ते अस्ति. इदानीं तदनन्तरं किमपि वर्णः नास्ति, उच्चारणं नास्ति चेत् तदा रेफस्य स्थाने विसर्गादेशः भवति इति अस्मिन् प्रसङ्गे तस्य अस्य सूत्रस्य प्रसक्तिः.
धन्यवादः महोदय, सम्यक् रीत्या प्रतिपादितवान्, धन्यवादः. अत्र तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रेण अत्र सप्तमी अत्र खरवसानयोः इति सप्तम्यन्तं रूपम् अत्र. अत्रापि खरवसानयोः इति पदम् इतरेतरयोगद्वन्द्वसमासयुक्तं पदं. खरवसाने अत्र पदार्थद्वयमस्ति इति कृत्वा खरच्च अवसानं च, तत्र समस्तपदं खरवसाने इति भवति. किमर्थम् अवसानम् इति पदं नपुंसकलिङ्गपदमस्ति इति कृत्वा फलं फले इव अवसाने खरवसाने इति भवति. तदनन्तरम् अत्र सप्तम्यन्तं रूपम् अस्ति इति कृत्वा तयोः इति द्विवचनरूपं खरवसाने तयोः इति लिखितमस्ति. आहत्य अत्र अवसानमित्युक्ते वर्णानाम् अभावः. अपि च अत्रापि अलोन्त्यस्य इति परिभाषया पदान्तस्य रेफस्य स्थाने विसर्गादेशः. आहत्य वयं राजपुरुषर् इति पदात् राजपुरुषः इत्युक्ते तत्र रेफस्य स्थाने विसर्गादेशः भवति इति वयम् अवगतवन्तः. उत्तमरीत्या वयं पदनिर्माणप्रक्रियायां ज्ञातवन्तः राजपुरुषः इति पदस्य प्रसङ्गे. अधुना वयम् अस्माकं कृते भगिनी अभ्यासार्थम् एकं नूतनम् अन्यत् पदं दत्तवती. तत्र भवच्चक्षुः इति समस्तपदमस्ति. तस्मिन् प्रसङ्गे किञ्चित् चिन्तनं कुर्मः. सर्वे उपरि अत्र भवच्चक्षुः इति अन्यत् उदाहरणं पश्यन्तु. तस्मात् आरभ्य अधुना पठनीयं. पुष्पा भगिनी भवती पठतु.
एकनिमिष भगिनि. भवच्चक्षुः उपरि न इदानीं दृष्टम् उपप्रातिपदिकं ते सर्वे कृतं न
अन्यत् उदाहरणं
भवच्चक्षु अस्तु भवच्चक्षु अन्यत् उदाहरणं भवच्चक्षुः इति षष्टीतत्पुरुषसमासः लौकिकविग्रहः भवतः चक्षुः इति अलौकिकविग्रहः भवत् न्यस् योगः भवत् योगः न्यस् योगः चक्षु योगः सु इति भवत् योगः न्यस् योगः चक्षु योगः सु समासज्ञा भवति प्राक्कडारात्समासः इति सूत्रेण तदनन्तरं तत्पुरुषः इति सूत्रेण विशिष्टतत्पुरुषसंज्ञा अपि विधीयते षष्ठी इति विधायकसूत्रेण भवतः इति षष्ट्यन्तं सुबन्तं चक्षुः इति समर्थेन सुबन्तेन सह समस्यते अस्तु भवच्चक्षु इति अन्यत् उदाहरणं दीयते तत्तु षष्टीतत्पुरुषसमासः अलौकिकविग्रह विग्रहवाक्यं भवतः चक्षुः इति अलौकिकविग्रहः तु भवत् योगः न्यस् योगः चक्षु योगः सु इति अत्र समाससंज्ञा भवति प्राकडारसमासः इति सूत्रेण तदनन्तरं तत्पुरुषः इति सूत्रेण विशिष्टतत्पुरुषसंज्ञा अपि विधीयते तत्तु एतद् तत्पुरुषः एव षष्टीतत्पुरुषः तत्तु षष्टी इति विधायकसूत्रेण तत्र भवतः तु षष्टी विभक्ति अस्ति इति षष्ट्यन्तं सुबन्तपदं
भगिनी चक्षुः अत्र तत्पुरुषः इति विशिष्टसमाससंज्ञा दीयते तत्र किमर्थं तत्पुरुषः इति समासः विशिष्टसमाससंज्ञा दीयते प्रतिपादयतु अत्र किमर्थम् अत्र तत्पुरुषः एव भवतु
तत्पुरुषः कथम् आगच्छति इति तत्पुरुषसमासस्तु तु अन्य
अत्र एकं क्रियापदं योजयित्वा पदप्राधान्यनिर्णयं करोतु
किं किम् एकवारं वदतु
अत्र पदप्राधान्यनिर्णयः कथं क्रियते वयं पूर्वमेव दृष्टवन्तः गुणवाचकपदं योजयित्वा अथवा क्रियापदं योजयित्वा तस्य अत्र कस्य पदस्य प्राधान्यमस्ति इति वयं निर्धारयितुं शक्नुमः अत्र तत्पुरुषः एव अस्ति इति कथं प्रतिपादयितुं शक्नुमः कथं निर्धारितुं शक्नुमः
अत्र अलौकिकविग्रहवाक्यं विद्यते न भवत् योगः न्यस्
अत्र इत्युक्तत्र किञ्चित् गीताञ्जलि भगिनी भवती वदतु किञ्चित् अत्र पदप्राधान्यनिर्णयं कथं क्रियते
उत्तरपदं तु प्रथमाविभक्ति इति वदति कोऽपि सर्वे षष्टिविभक्ति अस्ति चेत् ते सर्वे प्रथमा प्राकडारस्य
इत्युक्तत्र अत्र गीताञ्जलिभगिनी पदप्राधान्यम् अवगन्तुं कीदृशं चिन्तनम् अपेक्षितं किञ्चित् वदतु गीताञ्जलिभगिनी
यदि वयं न जानीमः किं पदं प्राधान्यं वयम् एकं क्रियापदं स्वीकृत्य लघुवाक्यं रचयामः अत्र तु भवच्चक्षुः
पश्यति
भवच्चक्षुः पश्यति अत्र तु कः पश्यति चक्षुः पश्यति भवतः पश्यति भवतः पश्यति इति तु किमपि साधु न, तदनन्तरं चक्षुः अर्थः न साधयति, तदनन्तरं चक्षुः एव पश्यति, चक्षुः एव प्राधान्यम्। अत्र तु भवचक्षुः, चक्षुः उत्तरपदमस्ति, तदनन्तरम् उत्तरपद प्राधान्यम् अस्ति, तदनन्तरं तत्पुरुषः इति वयं स्वीकुर्मः।
षष्टिविधायकसूत्रस्य प्रसङ्गे किञ्चित् वदतु।
षष्टिविधायकसूत्रे षष्टिः इति एकं सूत्रमस्ति। षष्टिः सूत्रे प्रथम विभक्ति पदम् अस्ति।
अत्र तु प्रथमानिर्दिष्टं समास उपसर्जनं तस्य प्रसक्तिः अग्रे आयास्यति, किन्तु अत्र षष्टिः इति विधायकसूत्रेण अत्र कीदृशं कार्यं, कीदृशं विधानं भवति इत्युक्ते, अत्र षष्ट्यन्तं पदं किमपि समर्थेन सुबन्तपदेन सह समस्यते इति षष्टिः इति सूत्रं वदति। अत्र भवतः चक्षुः इत्यस्मिन् भवतः इति षष्ट्यन्तं पदम् इत्युक्ते षष्ट्यन्तं पदं समर्थेन सुबन्तपदेन सह समस्यते इति षष्टिः इति विधायकसूत्रं वदति। इत्युक्ते अत्र भवतः इति पदं पुरुष चक्षु क्षम्यतां चक्षुः इति समर्थेन सुबन्तपदेन सह समस्यते इति कृत्वा तत्र षष्टिः इति विधायकसूत्रं दत्तम्। अग्रे पठतु।
क्षम्यतां भगिनि, भवद्योगः चक्षु सुप्तिङन्तं पदं न भगिनि,
तस्मात् पूर्वं भवतः योगः न कृत्तधित अस्माभिः ज्ञातमेव।
आं भगिनि, भवद्योगः न योगः चक्षु योगः सु समासस्य प्रातिपदिकसंज्ञा भवति कृतधितसमासश्च इत्यनेन सूत्रेण। अग्रिमं भगिनि
तावत् वदतु, अत्र किम् अभवत्?
अत्र तु कृत् तद्धितसमासश्च इति सूत्रेण भवत् योगः ङस् योगः चक्षु योगः सु सम्पूर्णरीत्या वयं समाससंज्ञा प्रातिपदिकसंज्ञा भवतु इति सूत्रं वदति।
उत्तमम्। इत्युक्ते सम्पूर्णशब्दसमुदायस्य
सम्पूर्णशब्दसमुदायस्य धन्यवादः,
तस्य प्रातिपदिकसंज्ञा भवति। अग्रे किं भवति? प्रातिपदिकसंज्ञा भवति चेत् तत्र प्रातिपदिकसंज्ञायाः प्रयोजनं किम् इति वयं दृष्टवन्तः। अग्रे पठतु।
भवद्योगः नस् योगः चक्षु योगः सु सुप्रत्ययस्य लुक् लोपः भवति सुपो धातु प्रातिपदिकयोः इत्यनेन। भवद्योगः नस् योगः चक्षु योगः चक्षु क्षम्यतां भगिनि, भवत् ङस् योगः चक्षु सु इत्यस्मिन् ङस् सु इत्यनयोः लुक् तदनन्तरं लुक् भूत्वा चेत् भवत् योगः चक्षु। अत्र तु प्रातिपदिकसंज्ञा स्वीकृत्य सुपो धातु प्रातिपदिकयोः इति सूत्रेण प्रसक्तिः, इति सूत्रेण इति वदति यत्रापि सुप् प्रत्ययः अस्ति प्रातिपदिके ते लोपः भवतु।
तदनन्तरम् अत्र द्विवचनरूपं सुपौ लुकौ भवतः इति वक्तुं शक्यते, सुपौ लुकौ भवतः अथवा सुप्रत्यययोः लुक् भवति तथा, इत्युक्तत्र द्वयोः सुप्रत्यययोः लोपः भवति इत्युक्ते द्विवचने वक्तव्यं। वदतु।
अस्तु भगिनि, अत्र तु द्विवचने एव प्रसक्तिः, किमर्थं द्वे सुप् प्रत्ययौ स्तः ङस् अपि च सु द्वयोः लोपः भवति. तदनन्तरं वयं भवद्योगः चक्षु इति इति निष्पन्नं भवति.
अग्रे अपि पठतु.
भवद्योगः चक्षु सुप्तिङन्तं पदम् इत्यनेन यस्य अन्ते सुप्रत्ययः अस्ति तस्य पदसंज्ञा भवति. अत्र च भवत् इत्यस्य अन्ते सुप् नास्ति. तर्हि प्रश्नः उदेति यत् तस्य पदसंज्ञा अस्ति न वा. उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन पदसंज्ञा अस्ति एव. इत्थञ्च पर्यवसतिं क्षम्यतां पर्यवसितं यत्. सन्धिचिन्तनावसरे समासे पूर्वपदस्य पदसंज्ञा भवति. अत्र वयं भवद्योगः चक्षु सुपो ला धातुप्रातिपदिकयोः भूत्वा आयाति. तदनन्तरं सुप्तिङन्तं पदम् इति सूत्रेण पदसंज्ञा भवति. भवत् चक्षु इति पदस्य पदसंज्ञा भवति. किन्तु एकं प्रश्नः उदेति यदि सुप् न वा तिङ् न वा तदनन्तरं कथं पदसंज्ञा अस्ति. तदनन्तरं प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण वदति यद्यपि प्रत्ययलोपः भवति तस्य लक्षणम् अस्ति एव. लक्षणम् अस्ति चेत् तदनन्तरं भवच्चक्षु इति एकं पदम् अस्ति.
उत्तमम्. इत्युक्ते अत्र पदमस्ति चेदेव पदसम्बद्धकार्याणि भवितुम् अर्हन्ति. इत्युक्ते पदसंज्ञा अस्ति चेदेव सन्धिकार्याणि भवितुम् अर्हन्ति इति. अत्र इत्थं च, इत्थं च इत्युक्ते ईदृशरीत्या, पर्यवसितं, पर्यवसितम् इत्युक्ते कङ्क्लूजन्. कङ्क्लूजन् किम् इत्युक्ते इत्थं च पर्यवसितं यत् सन्धिचिन्तनावसरे समासे पूर्वपदस्य पदसंज्ञा भवति. पदसंज्ञा इत्युक्ते अत्र भवत् शब्दस्य पदसंज्ञा अस्ति चेदेव पदसम्बद्धकार्याणि भवितुमर्हन्ति. अत्र यदा वयं झलां झषोऽन्ते सूत्रं पश्यामश्चेत् तत्र सर्वत्र पदान् पदस्य पदस्य इत्युक्ते पदस्य अधिकारः अस्ति इति कृत्वा अत्र अस्माकं समस्तपदस्य पदसंज्ञा भवेत् इति उक्तमस्ति. एतावत् भवत्या सुन्दररीत्या प्रतिपादितं प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण. यद्यपि अत्र द्वयोः सुप्रत्ययोः लोपः भवति, तौ नौ न दृश्येते, तथापि अत्र प्रत्ययनिमित्तिकं कार्यं भवति एव, तत्र पदसंज्ञा अस्ति एव इति अवगन्तव्यं. धन्यवादः भगिनी. अनन्तरम् अत्र सुमलता भगिनी भवती पठितुमिच्छति वा अग्रिमं सोपानम्? नो चेत् उषा भगिनी भवती पठतु. उषा भगिनी अस्ति वा? न श्रूयते अत्र. उषा भगिनी अस्तु. अत्र सरस्वती विनय महोदय पठतु.
भवत् चक्षु सुप्त्यन्तं पदम् इत्येन यस् अन्ते सुप् प्रत्ययः अस्ति तस् पदसंज्ञा भवति. अत्र च भवत् इत्यस्य अन्ते सुप् नास्ति. तर्हि प्रश्नः उदेति परन्तु पूर्वं प्रत्ययलोपं लोपे प्रत्ययलक्षणं भवति वदितः. तर्हि इदानीम् अहं अग्रे गच्छामि. भवत् चक्षु भवत् योगचक्षु अत्र प्रथमनिर्दिष्टं समास उत्सर्जनम् इति सूत्रेण प्रथमविभक्त्यां यत् पदं निर्दिष्टम् अस्ति समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति अत्र समासविधायकसूत्रम् अस्ति षष्ठिः इति अस्मिन् सूत्रे षष्ठी इति पदं प्रथमविभक्तौ अस्ति अथ तस्य उपसर्जनसंज्ञा भवति अधुना उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जनसंज्ञपदस्य पूर्वनिपातः भवति अस्माकम् उदाहरणे भवत् इति पदं षष्ठ्यन्तं पदम् अथ तस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति भवत् योगचक्षु झलां जशोन्ते
महोदय तावत्पर्यन्तं तत्र अत्र परिच्छेदे किं लिखितम् अस्ति किञ्चित् प्रतिपादयतु प्रथमानिर्दिष्टं समासोपसर्जनं तस्मिन् प्रसङ्गे वदतु
प्रथमनिर्दिष्टं समास उपसर्जनं यदि प्रथमा विभक्तिः निर्दिष्टः तर्हि उपसर्जनं पूर्वम् आधारेण पूर्वनिपातः प्रथमविभक्तिसम्बन्धे भवति यदि भवत् भवत प्रथमविभक्ति अस्ति प्रथमतया वयं जानीमः भवतः षष्ठी विभक्ति अतः भवत प्रत्यलोपे प्रलक्षणम् आनयति तर्हि वयं जानीमः भवतः षष्ठी विभक्ति अतः पूर्वं कार्यं भवतः आधारेण करणीयं यतः यदि भवत् चक्षु झलां जशन्ते इत्यादि भवति तर्हि सर्वे कार्याणि भवन्ति अनन्तरः
किम् इत्युक्ते अत्र सन्धिकार्याणि इत्युक्ते अग्रिमे परिच्छेदे सन्धिकार्याणि उक्तानि सन्ति अत्र अस्मिन् परिच्छेदे किं लिखितम् अस्ति इति भवान् इतोपि वक्तुम् इच्छति वा अत्र अस्मिन् परिच्छेदे किं लिखितमस्ति अत्र कीदृशं कार्यम् अभवत् अत्र प्रथमानिर्दिष्टं समासोपसर्जनम् उपसर्जनं पूर्वम् इत्याभ्यां सूत्राभ्यां कीदृशं कार्यम् अभवत् अत्र
पूर्वनिपातकार्यम् अत्र
इत्युक्ते यद्यपि भगिनी अत्र चक्षुयोगः भवत् इति न लिखितवती इत्युक्ते आरम्भात् भवत् योगः चक्षु इति एव भगिनी लिखितवती किन्तु अत्र समस्तपदे पदद्वयमस्ति चेत् किं पदं पूर्वं भवति किं पदम् उत्तरपदं भवति इति प्रश्नः उदेति तदर्थमेव तस्य उत्तरमेव अत्र उपसर्जनसंज्ञा सूत्रम् अपि च विधिसूत्रम् एताभ्यां सूत्राभ्याम् अत्र भवत् इति शब्दस्य पूर्वप्रयोगः भवति यद्यपि भगिनी अत्र राजपुरुषः इत्यस्मिन् पदे स्पष्टतया लिखितवती इत्युक्ते तत्र चक्षुयोगः भवत् इति आरभ्य तत्र तादृशरीत्या लिखितवती किन्तु अत्र अस्माभिः अवगन्तव्यम् इत्युक्ते अत्र यद्यपि अत्र भवत् चक्षुः इति एव लिखितवती किन्तु एताभ्यां सूत्राभ्याम् एव भवत् इति पदस्य पूर्वप्रयोगः भवति अत्र एतत् सर्वं वयं पूर्वमेव दृष्टवन्तः भवान् किमपि योजयितुम् इच्छति वा महोदय इतोपि वक्तुमिच्छति वा
अग्रे वदामः
अग्रे पठतु
भवत् योगचक्षु सर्वे सन्धि कार्याणि भवन्ति प्रथमतया झलाम जशोवन्तेः इत्यनेन जशत्वसन्धि भवति अतः भवत् भवद भवति भवद चक्षु तर्हि अन्यसन्धि स्तौ शुनः श्चुः अस्ति स्तौ शुनः श्चु आधारेण भवज भवति भवज तर्हि खरिचः अन्यसूत्र अस्ति इत्यनेन जकारस्य स्थाने चकारदेशः भवति खरिपरे अतः अन्ततः भवच योगः चक्षु वर्णमेलनम् अस्ति भवचक्षु
उत्तमं महोदय अत्र इत्युक्ते एतानि सन्धिसम्बद्धसूत्राणि त्रिपाद्यां सन्ति यत्र पूर्वोत्तरासिद्धम् इत्यस्य अधिकारः अस्ति अतः सूत्राणि क्रमेण प्रवर्तनीयानि इति अत्र एकम् अत्र बहवः विषयाः सन्ति अत्र सुमन् भगिनी अत्र झलां जशोन्ते इति सूत्रस्य विषये किञ्चित् पठति वा अग्रे दत्तवती भगिनी शीघ्रं
वदनीयं वा पठनीयं वा भगिनि
किञ्चित् वदतु पठनीयं नास्ति समयाभावात्
अस्तु जलां जशोन्ते कार्यं करोति पदान्ते झल् वर्णः अस्ति चेत् जश् वर्णः आदेशः भवति जश् वर्णः इत्युक्ते वर्गीय तृतीय व्यञ्जनानि झल् वर्णः इत्युक्ते वर्गीय प्रथम द्वितीय तृतीय चतुर्थी अपि च शशसः ते व्यञ्जनानि तानि व्यञ्जनानि पदान्ते अस्ति चेत् तेषां स्थाने जश् वर्णः इत्युक्ते वर्गीयतृतीयव्यञ्जन क वर्गीयस्य गकार आदेश च वर्गीयस्य जकार त वर्गीयस्य डकार ठ त वर्गीयस्य दकार प वर्गीयस्य बकार आदेश भवति इदानीं भवत् अस्ति खलु तत्र तत्तु झल् वर्णः अतः तवर्गीय दकार तृतीयव्यञ्जनं दकारः आदेशः भवति भवद् योगः चक्षुः भवति अनन्तरम् अग्रिमं सोपानम् अस्ति स्तोश्चुनाश्चुः तत्र सकार अस्ति नो चेत् तवर्गीयव्यञ्जनम् अस्ति चेत् तस्मात् पूर्व नो चेत् तस्मात् परं शकार अस्ति इत्युक्ते तालव्यशकार न तु च वर्गीयव्यञ्जनम् अस्ति चेत् सकारस्य स्थाने तवर्गीयस्य व्यञ्जनस्य स्थाने शकार नो चेत् च वर्गीयव्यञ्जनम् आदेशः भवति क्रमेण आगमः भवति अतः इदानीं तु भवद् अस्ति तत्तु वर्गीयतृतीयव्यञ्जनम् अस्ति च वर्गीयस्य तृतीयव्यञ्जनं जकारः अस्ति अतः इदानीं दकारस्य स्थाने जकारः आदेशः भवति भवज् योग चक्षुः इति भवति अनन्तरं खरिच सूत्रम् अनन्तरं कार्यं करोति तत् तेन सूत्रेण खर्वर्णः परे अस्ति चेत् खर्वर्ण इत्युक्ते वर्गीयप्रथम कर्कषव्यञ्जनानि वर्गीयप्रथम नो चेत् द्वितीयव्यञ्जनं नो चेत् शशस ते तेषां कोऽपि कमपि व्यञ्जनम् अस्ति चेत् पूर्वस्थित वर्गस्य स्थाने वर्गीय प्रथमान्तम् आदेश भवति. इत्युक्ते इदानीं तु जकार अस्ति, तस्य स्थाने च वर्गीयस्य प्रथम सदस्य इत्युक्ते चकार आदेशः भवति. अतः इदानीं भवच योग चक्षुः भवति.
उत्तमं, वर्णमेलनेन. उत्तमम् उत्तमं, सम्यक् रीत्या उक्तवती भगिनी, धन्यवादः. अत्र झलां जशोन्ते अपि च स्तोःश्चुनाश्चुः खरि च एतानि त्रीणि सूत्राणि अष्टाध्याय्यां त्रिपाद्यां सन्ति. इत्युक्ते अष्टाध्याय्याम् अष्टमाध्याये एतानि सन्धिसूत्राणि सन्ति इति एकः विषयः. अपि च अत्र पदस्य इत्यस्य अधिकारः अस्ति इति कृत्वा पदमस्ति चेदेव पदसम्बद्धकार्याणि भवितुमर्हन्ति इति अन्यः विषयः स्मर्तव्यः. अत्र स्तोःश्चुनाश्चुः इति सूत्रे स्तोः इति वदामश्चेत् सकारः, तुः तुः इत्युक्ते तवर्गीयव्यञ्जनानि, सकारः च तवर्गीयव्यञ्जनानि, कवर्गीयव्यञ्जनानि कुः इति वदामः, कु इति वदामः, तथा एव तवर्गीयव्यञ्जनानि तु इति भवन्ति. तत्र स्तोः इति षष्ट्यन्तं पदमस्ति. श्चुना इति तृतीया विभक्त्यन्तं किमर्थमस्ति भगिनी वदतु.
तत्र वयं जानीमः खलु गुरुशब्दस्य तृतीया विभक्ति अस्ति गुरुणा. अत्र तु अस्ति, तु उकार पदम् अस्ति, अतः तृतीया भवति स्तुना, नो चेत् स्तुनाष्टुः, स्तुनाश्चुः इति. तत्र गुरुशब्दस्य शब्द इव.
अत्र श्रीराम महोदय, भवान् वदतु अत्र श्चुना इति पदस्य प्रामुख्यं किम्? अत्र किमर्थम् अत्र तृतीयान्तं रूपं सूत्रे दत्तमस्ति, तत्र प्राधान्यम् अस्ति, वदतु.
इदानीं अत्र यदा किमपि पदं सूत्रेषु किमपि पदं षष्ट्यन्तम् अस्ति चेत् तत् साणि सूचयति, सप्तमी अन्तं पदं पूर्वनि निमित्तं परनिमित्तं सूचयति, पञ्चम्यन्तं पदं पर पूर्वनिमित्तं निमित्तं सूचयति. इदानीं तृतीयान्तं पदं किं सूचयति इत्युक्ते तत्र उभयत्र पूर्व अपि च पर वर्णे निमित्तत्वेन स्वीकुर्मः. यदा अत्र अस्मिन् प्रसङ्गे श्चुः इति अस्ति, श्चुः इति वर्णः षकारः अपि च चवर्ग चवर्गीयव्यञ्जनानि, एतानि वर्णानि एतेषु वर्णेषु अन्यतमः वर्णः पूर्वम् अथवा परम् अस्ति चेत् तदा श्चुः इति आदेशरूपेण आगच्छति, श्चुः आदेशरूपेण आगच्छति. शुना इति उभयत्र इति सूचनार्थम् उपयोगं कृतम् अस्ति.
उत्तमम् उत्तमं महोदय, तदेव श्रोतुम् इच्छामि. इत्युक्ते अत्र
एकनिमिष, अद्य किञ्चित् कार्यम् अस्ति, अहम् इदानीं मया इदानीं गन्तव्यं, क्षम्यतां भगिनि.
मास्तु, चिन्ता मास्तु. यथा अत्र महोदयेन उक्तम् अत्र निमित्तद्वयमस्ति इति कृत्वा अत्र निमित्तं पूर्वं वा परं वा भवितुमर्हति, तदेव शुना इति सूत्रेण. इत्युक्ते शकारस्य प्रभावेण चवर्गीयव्यञ्जनस्य तत्र शकारस्य प्रभावेण वा अथवा चवर्गीयव्यञ्जनस्य प्रभावेण स्चुः इति तत्र षकारः वा चवर्गीयव्यञ्जनं वा आदेशः भवति. अत्र स्चुः इति प्रथमान्तं पदमस्ति, स्चुना इति तृतीयान्तं पदमस्ति, स्तोः इति षष्ट्यन्तं पदमस्ति. अत्र एकं अन्यः विषयः अस्ति, एतानि सन्धिसम्बद्धसूत्राणि त्रिपाद्यां सन्ति. त्रिपाद्याः प्रसङ्गे कोऽपि वदति वा अत्र यद् जानाति?
श्रूयते वा भगिनि?
उषा भगिनी वदतु त्रिपाद्यां प्रसङ्गे.
त्रिपाद्याम् अपि पूर्वत्र पूर्वसूत्रं प्रति परसूत्रम् असिद्धं, परकार्यम् असिद्धम्.
अत्र त्रिपादी नाम का?
अष्टमाध्याये पाणिनीयसूत्रे पाणिनीय एय्थ् फ्रम् एय्त् चाप्टर् सेकेण्ड् सेक्षन् आन् अष्टमाध्याये द्वितीयपाद आन्वर्ड्स् 2, 3, 4
अष्टमाध्यायस्य द्वितीयपादात् आरभ्य अष्टमाध्यायपर्यन्तम् अष्टमाध्यायस्य द्वितीयपादात् आरभ्य अष्टमाध्यायपर्यन्तम् इत्युक्ते अन्तपर्यन्तम् इत्युक्ते द्वितीयभागः इत्युक्ते अष्टाध्यायी पुस्तकस्य द्वितीयभागः इति वक्तुं शक्यते. तस्य नाम एव त्रिपादी. किन्तु प्रथमभागस्य नाम किम्?
सपादशब्दाध्यायी.
अत्र पूर्वत्रा सिद्धम् इति सूत्रं त्रिपाद्याम् अस्ति. त्रिपाद्यां प्रथमसूत्रम् अस्ति. अत्र पूर्वत्रा सिद्धम् इति एकम् अधिकारसूत्रम् अस्ति इति कृत्वा पुनः वदतु भगिनि. पूर्वत्रा सिद्धं किं वदति?
पूर्वत्रा सिद्धम् इति सूत्रेण सपादशब्दाध्यायी प्रति सपादशब्दाध्यायीं प्रति परकारि
तावदेव इत्युक्ते अत्र वदतु अत्र सपादसप्ताध्याय्यां
सप्तायीं प्रति प्रति त्रिपादी असिद्धा. या त्रिपादी असिद्धा. त्रिपाद्यां प्रति पूर्वस्य परं परं कार्यं न सिद्धम्
इत्युक्ते आहत्य सपादसप्ताध्याय्यां यानि यानि पूर्वसूत्राणि सन्ति तेषां प्रति त्रिपाद्यां ये यानि सूत्राणि सन्ति ते असिद्धानि भवन्ति. अपि च त्रिपाद्यां यत् पूर्वसूत्रमस्ति तं तत् प्रति परसूत्रम् असिद्धं परसूत्रम् असिद्धं भवति इति वदति. किन्तु सपादसप्ताध्याय्याम् एकम् अन्यत् सूत्रमस्ति विप्रतिषेधे परं कार्यं. तेन किं भवति इत्युक्ते तत्र पूर्वसूत्रं प्रति परसूत्रं बलवत् भवति इति विप्रतिषेधे परं कार्यं वदति. किन्तु पूर्वत्रा सिद्धम् इत्यस्य अधिकारे एतानि सन्धिसम्बद्धसूत्राणि सन्ति इति कृत्वा पूर्वसूत्रस्य कार्यं प्रथमं प्रवर्तनीयं परसूत्रस्य कार्यम् अनन्तरं करणीयं. तदर्थमेव अत्र सूत्रसङ्ख्यां पश्यामश्चेत् जलां जशोन्ते इति सूत्रसङ्ख्या पूर्वसूत्रमस्ति. तदनन्तरं स्तोहश्चुनाश्चुः अस्ति. तदनन्तरं खरी च अस्ति इति कृत्वा अत्र क्रमेण एतानि सूत्राणि प्रवर्तनीयानि इति लिखितमस्ति. अग्रे पठतु.
बवच्चक्षु इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति. पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इत्यनेन समासे उत्तरपदस्य यत् लिङ्गम् अस्ति तदेव लिङ्गं भवति द्वन्द्वतत्पुरुषयोः. उत्तरपदम् अस्ति चक्षु इति. तस्य लिङ्गम् अस्ति पुल्लिङ्गम्. अतः भवच्चक्षु इति समस्तपदस्य लिङ्गं भवति पुल्लिङ्गम्. सामान्यतया समासः प्रथमाविभक्ते एकवचने एव उच्यते. भवच्चक्षु इत्यस्य वचनं भवति एकवचनं. तदनन्तरम् अस्माकं विवक्षानुगुणं वाक्ये समस्तपदस्य विभक्तेः परिवर्तनं कृत्वा प्रयोगः करणीयः. पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इत्यनेन सूत्रेण समासपदस्य समस्तपदस्य उत्तरपदस्य यत् लिङ्गम् अस्ति तदेव समासपदस्य लिङ्गं भवति. द्वन्द्व भवच्चक्षु इति समस्तपदे चक्षु इति पदम् उत्तरपदं. तस्य लिङ्गं पुल्लिङ्गं. भवच्चक्षु समासस्य लिङ्गं पुल्लिङ्गः अस्ति.
सम्यक् एव भगिनी. सम्यक्तया उक्तवती. अत्र अत्र समस्तपदस्य लिङ्गं किं भवति आहत्य?
पुल्लिङ्गं.
पुंलिङ्गं भवति. अपि च इत्युक्ते तादृशरीत्या पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः सूत्रेण उत्तरपदस्य लिङ्गमेव सम्पूर्णसमस्तपदस्य लिङ्गं भवति इति कृत्वा अत्र भवच्चक्षुः इति पदं पुंलिङ्गपदं भवति. अपि च प्रथमपुरुष क्षम्यतां प्रथमाविभक्ति एकवचने एव तस्य रूपं सुप्रत्ययस्य योजनेन साधनीयम्। अत्र एकवचनरूपम् आरम्भे साधयामः, तदनन्तरं समस्तपदस्य विभक्तिपरिवर्तनं कृत्वा अन्यासु विभक्तिषु तस्य रूपं निर्मामः। उत्तमं, धन्यवादः भगिनी। अन्ये के के सन्ति इदानीं पर्यन्तं न उक्तवन्तः? सरस्वती भगिनी, शुभदा भगिनी, सुमलता भगिनी, कोऽपि वक्तुम् इच्छन्ति वा अत्र?
आमां, वदामि वा?
पठतु भगिनी, अग्रिमपरिचयं पठतु।
भवच्चक्षुयोगसु, अत्र भवच्चक्षु इति प्रातिपदिकात् सुप्रत्ययः विधीयते ज्ञाप्रतिपादिकात् प्रातिपदिकात् स्वौजसमौ षष्ठाभ्यां भेस् घेभ्यां भ्यस् घसिभ्यां भ्यस् घसोस्यां सुप् इति द्वाभ्यां सूत्राभ्यां। सु इति प्रत्यये उकारस्य इत्संज्ञा भवति उपदेशे जनुनासिक इत् इत्यनेन। तत्पश्चात् उकारस्य लोपः भवति तस्य लोपः इत्यनेन। अतः भवच्चक्षु योग स इति भवति। अधुना ससजुषो रुः इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति, भवचक्षुरु इति भवति। उकारस्य इत्संज्ञा भवति उपदेशे जनुनासिक इत् इत्यनेन। तत्पश्चात् उकारस्य लोपः भवति तस्य लोपः इत्यनेन, भवचक्षुर् इति भवति। अधुना खरवसानयोर्विसर्जनीयः इति सूत्रेण पदान्तस्य रेफस्य स्थाने विसर्गादेशः भवति अवसान अवस्थायाम्। अतः भवच्चक्षुः इति समस्तपदं सिद्धं। प्रथमाविभक्तौ एकवचने भवच्चक्षुः इति रूपम्। एवमेव अन्यान् सुप्रत्ययान् योजयित्वा सर्वासु विभक्तिषु रूपाणि साधयामः। रूपाणि गुरुशब्दवत् भवन्ति। अत्र संक्षेपतया सर्वं लिखितमस्ति। भवचक्षु योगसु अत्र सुप्रत्यय विधीयते सूत्रे अस्ति न्याप्रतिपादिकात् स्वजुसमोषष्ठाभ्यां भिस् घेभ्यां भ्यस् घसिभ्यां भ्यस् घसुसां घ्योस्सु इति सूत्राभ्यां। सुप्रत्ययः प्रथम एकवचन सूत्रम् एकवचनप्रत्ययः अस्ति, अतः सुप्रत्ययः आगच्छति अत्र। तदनन्तरम् उपदेशे जननासिक इत् इति सूत्रेण इत्यनेन सूत्रेण उ लोपः भवति, उकारस्य लोपः भवति। तदनन्तरं तस्य लोप उकारस्य इत् संज्ञा भवति तस्य लोपः इत्यनेन सूत्रेण तस्य लोपः भवति। अतः भवति भवच्चक्षु योग स। तदनन्तरं ससजुषो रुः इति सूत्रेण सकारस्य रु आदेशः भवति, भवचक्षुरु भवति। तदनन्तरं पुनः उपदेशजननासिक इति सूत्रेण उकारस्य इत्संज्ञा भवति तस्य लोपः सूत्रेण उकारस्य लोपः भवति, भवचक्षुर् भवति। तदनन्तरं भवचक्षुर् तदनन्तरम् अवसानः अस्ति, अतः खरवसानयोर्विसर्जनीयः सूत्रेण पदान्तस्य रेफस्य विसर्गः भवति, अतः भवच्चक्षुः इति समस्तपदं सिद्धमस्ति। एतत्तु प्रथमाविभक्तौ एकवचने रूपमस्ति। अन्यान् विभक्तेः योजयित्वा अन्य पदमपि कर्तुं शक्यते।
इत्युक्ते अन्यासु विभक्तिषु तत्र अस्माकं विवक्षानुगुणं सुप्रत्ययान् योजयित्वा भिन्नासु विभक्तिषु रूपसाधनं कुर्मः। एतावता भवच्चक्षुः इति पदं गुरुशब्दवत् उकारान्तपदं भवति। अत्र भवच्चक्षु इति प्रातिपदिकमस्ति, तत्र ज्ञाप्रातिपदिकात् अत्र तत्र कृत्तद्धितसमासाश्च इति सूत्रेण प्रातिपदिकसंज्ञा दीयते। तदर्थमेव तस्य भवच्चक्षु इत्यस्य प्रातिपदिकसंज्ञा अस्ति इति कृत्वा द्वाभ्यां सूत्राभ्याम् अत्र सुपः योजनं भवति, सुबुत्पत्तिः भवति। आहत्य अत्र सप्तसु विभक्तिषु रूपाणि लिखितानि, एकवारं पठतु भगिनि रूपाणि। भवती एव पठतु।
स्वौ च समौ षष्टाभ्यां भिस् घेभ्यां भ्यस् घसिभ्यां भ्यस् घसोस्वां ग्योस्सु
न न अत्र
विभाजनं कृत्वा वा
न न भवच्चक्षुः इति पदस्य रूपाणि सप्तसु विभक्तिषु भगिनी लिखितवती अत्र
आमामाम् अस्तु अस्तु
पठतु
भवच्चक्षुः भवच्चक्षु भवच्चक्षवः हे भवच्चक्षो हे भवच्चक्षु हे भवच्चक्षवः भवच्चक्षून् भवच्चक्षु भवच्चक्षून् भवच्चक्षुणा भवच्चक्षुभ्यां भवच्चक्षुभिः भवच्चक्षवे भवच्चक्षुभ्यां भवच्चक्षुभ्यः भवच्चक्षोः भवच्चक्षुभ्यां भवच्चक्षुभ्यः भवच्चक्षोः भवच्चक्ष्वोः भवच्चक्षूणां भवच्चक्षौ भवच्चक्ष्वोः भवच्चक्षुः
उत्तमं भवच्चक्षुषु उत्तमं
चक्षुषु
सम्यक् रीत्या उक्तवती भगिनी सम्यक् प्रतिपादितवती धन्यवादः एतावत्पर्यन्तं वयं राजपुरुषः अपि च भवच्चक्षुः इति पदद्वयं स्वीकृत्य वयम् उत्तमरीत्या प्रक्रियाचिन्तनं कृतवन्तः अत्र अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा अन्येषां समस्तपदानां प्रसङ्गे रूपसाधनार्थं कानि कानि सोपानानि सन्ति इतोपि अन्यानि नूतनानि सूत्राणि अपि द्रक्ष्यामः अधुना अत्र स्थगयामः सर्वेषां धन्यवादः
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 धन्यवादः